प्रचण्डार्तीक्षोभ प्रमथनकृते प्रातिबसरित्प्रवाह प्रोद्दण्डीकरणजलदाय प्रणमता प्रदीपाय प्रौढे भवतमसि कामाक्षि चरण प्रसादोन्मुख्याय स्पृहयति जनोऽयं जननि ते मरुद्भिः संसेव्य सततमपि चाञ्चल्यरहिता सदारुण्यं यान्ति परिणति दरिद्राण सुषमा गुणोत्कर्षान्माञ्जीरज कलकलैः तर्जनपटुः प्रवालं कामाक्ष्याः परिहसति पादाब्जयुगली जगद्रक्षा दक्ष जलजरुचिशिक्षा पटुतरा सुरैर्नम्यारम्य सततमभिगम्य बुधजनैः द्वयी लीला लोला श्रुतिषु सुरपालादिमुकुटी तटी सीमादामा तव जननि कामाक्षि पदयोः गिरां दूरौ चोरौ जडिमतिमिराणां कृतजगत्परित्राणौ शोणौ मुनिहृदयलीलैकनिपुणौ नकैस्मेरौ सारौ निगमवचसां खण्डितभव ग्रहोन्मादौ पादौ तव जननि कामाक्षि कलये अविश्रान्तं पङ्कं यदपि कलयन् यावकमयं निरस्यन् कामाक्षि प्रणमनजुषां पङ्कमखिलं तुलाकोटिद्वन्द्वं दधदपि च गच्छन् अतुलता गिरामार्गं पादः गिरिवरसुते लङ्घयति ते प्रवालं सव्रीलं विपिनविवरे वेपयति या स्फुरल्लीलं बालातपम् अधिकबालं वदति रुचिं सन्ध्यां वन्द्यां विरचयति वर्धयतु सा शिवं मे कामाक्ष्याः पदनळिनपाटल्यलहरी किरञ्ज्योत्स्नारीतिं नखमुकरु चां हंसमनसां वितन्वानप्रीतिं विकच तरुणाम्भोरुहरुचिः प्रकाशश्रीपादः तव जननि कामाक्षि तानुते शरत्कालप्रौढिं शशिशकलचूडप्रियतमे नकाङ्कुरस्मेर द्युतिविमलगङ्गाम्बसि सुखं कृतस्नानं ज्ञानामृतम् अमलमास्वाद्य नियतम् उदञ्चल्मञ्जीर स्फुरणमणिदीपे मम मनः मनोज्ञे कामाक्ष्याः चरणमणिहर्म्ये विहरता भवाम्बोधौ नौकां जडिमविपिने पावकशिखां प्रणम्रेन्द्रादीनाम् अधिमुकुटमुत्तं सकलिका जगत्तापे ज्योत्स्नाम् अकृतकवचः पञ्जरपुटे शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगले పరాత్మ ప్రకాశ్య ప్రతిఫలన చుంచు ప్రణమతాం మనోజ్ఞస్త్వత్పాద మణిముకురముద్రాం కలయతే యదీయాం కామాక్షి ప్రకృతిమసృణశోధకదశాం విధాతుం చేష్టంతే బలరిపువధూటి కచభరా.